इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः ललितमोहनः तिवारी। आदौ मुख्य वार्ताः। भारतेन बांग्लादेशे संजाते हिन्दू अल्पसंख्यक नेतुः भावेश चंद्र रायस्य अपहरण निर्मम हत्ययोः निन्दा कृता। सममेव अल्पसंख्यक समुदायानां सुरक्षायै आग्रह च कृतः। प्रधानमंत्री नरेन्द्र मोदी मंगलवासरे सऊदी अरबस्य द्विदिवसीय यात्रायां प्रस्थास्यति। भारतस्य औषध निर्यातः गत वित्तीय वर्षे 30 अरब डॉलर मित पर्यन्तं समंकितः। 25th-2000 जेईई मेन इत्यस्य द्वितीय सत्रे 24 छात्राः पूर्णांकं प्राप्तवन्तः। अपि च आईपीएल क्रिकेट स्पर्धा मालिकायां गुजरात टाइटन्स डेली कैपिटल्स दलयोर मध्ये स्पर्धा सम्प्रति प्रचलति। अथ वार्ताः विस्तरेण। भारतेन बांग्लादेशे संजाते हिन्दू अल्पसंख्यक नेतुः भावेश चंद्र रायस्य अपहरण निर्मम हत्ययोः च निन्दा कृता। विदेश मन्त्रालयस्य प्रवक्ता रणधीर जायसवालः सामाजिकान्तर्जालीय सन्देशे अवदत् यत् एषा घटना बांग्लादेशे अन्तरिम सर्वकारस्य अधीनं हिन्दू अल्पसंख्यकानां व्यवस्थितरूपेण उत्पीडनस्य निरन्तरं प्रतिरूपं प्रतिबिम्बयति। तत्रैव एतादृशानां पूर्वापराधानां उत्तरदायिनः न्यायिक कार्याचरणेन मोचिताः सन्ति। प्रधानमन्त्री नरेन्द्र मोदी सऊदी अरबस्य राजकुमारस्य प्रधानमन्त्रिणश्च मोहम्मद बिन सलमानस्य निमन्त्रणे मंगलवासरे सऊदी अरबस्य द्विदिवसीय यात्रायां प्रस्थास्यति। विदेश मन्त्रालयेन अद्य एकस्मिन् वक्तव्ये प्रतिपादितं यत् 16th-2000 1920th-2000 च प्रधानमन्त्रिणो मोदिनो सऊदी अरबस्य एषा तृतीया यात्रा भविष्यति। अतः पूर्व 23rd-2000 सितम्बरे मासे मोहम्मद बिन सलमानः G20 शिखर सम्मेलने भागं भजितुं राजकीय यात्रायां नवदिल्लीं समागतः आसीत्। अमुना भारत सऊदी अरब कार्यनीतिक सहभागिता परिषदः प्रथमं उपवेशनमपि सहाध्यक्षितम् आसीत्। भारतस्य सऊदी अरबस्य च सामाजिक सांस्कृतिक व्यापारिक सम्बन्धानां सुदीर्घः इतिहासः वर्तते। उभयो देशयो मध्ये घनिष्ठः मित्रतापूर्णः सम्बन्धः अस्ति। कार्यनीतिक सहमत्ययुतेन मित्रराष्ट्ररूपेण द्वयोश्चापि देशयो मध्ये राजनीतिक रक्षा सुरक्षा व्यापार निवेश ऊर्जा प्रौद्योगिकी स्वास्थ्य शिक्षा संस्कृत सहितेषु विभिन्नेषु क्षेत्रेषु सुदृढः द्विपक्षीयः सम्बन्धः अस्ति। विगते दशके सऊदी अरबेन साकं भारतस्य सम्बन्धाः अतोऽपि सुदृढः जाताः सन्ति। प्रधानमन्त्रिणो नरेन्द्र मोदिनो यात्रा दर्शयति यत् भारतं सऊदी अरब देशेन साकं स्वीय द्विपक्षीय सम्बन्धान् महत्वपूर्णान् मनुते। अनया यात्रया देशद्वयस्य मध्ये बहुक्षेत्रीय सहभागिता अतोऽपि सुदृढा भविष्यति। अथ च परस्परं हितसाधनस्य विभिन्न क्षेत्रीय विषयाणाम् अन्ताराष्ट्रिय प्रकरणानां च विचाराणामपि आदान प्रदानं भविष्यति। टेस्ला इति संस्थायाः मुख्य कार्यकारिणा एलोन मस्क इत्यनेन उक्तं यत् सः वर्षान्तं यावत् भारतं प्रति आगमिष्यति। प्रधानमन्त्रिणः नरेन्द्र मोदिना आभासीय पटले उल्लिखितस्य सन्देशस्य प्रतिक्रियारूपेण तेनोक्तं यत् श्रीमोदिना सह चर्चा तस्य कृते सम्मानपूर्णमस्ति। अवधेयं यत् ह्यः प्रधानमन्त्री नरेन्द्र मोदी टेस्ला संस्थाया मुख्य कार्यकारी अधिकारी एलोन मस्क इत्युभयो मध्ये प्रौद्योगिकी नवाचार क्षेत्रयो सहकार्यस्य विषये चर्चा जाता। भारतस्य औषध निर्यातः गत वित्तीय वर्षे 30 अरब डॉलर मित पर्यन्तं समंकितः, यत्र अमेरिका देशः प्रमुखापणम् अभवत्। देशस्य कुल औषध निर्यातस्य 1/3 भागम् अस्ति। आधिकारिक व्यापार दत्तांशस्य अनुसारं वित्तीय वर्षे 24th-2000 मध्ये औषध निर्यातः 30 अरब डॉलर मितात् अधिकं यावत् अभवत्, यत् वित्तीय वर्षे 23rd-2000 मध्ये प्रायः 27.5 अरब डॉलर मितात्मकस्य तुलनायां 9% अधिकं वृद्धि अभवत्। 25th-2000 मार्च मासे औषध निर्यातेषु 30% वृद्धि अभवत्। संस्कृत वार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। पञ्चविंशत्यधिक द्विसहस्रतमाब्दीय जेईई मेन द्वितीय सत्रीय संयुक्त प्रवेश परीक्षाया परिणाम अद्य प्रातः प्रसारितः। अस्मिन् वर्षे प्रायः चतुर्विंशति छात्रा पञ्चविंशत्यधिक द्विसहस्रतमाब्दीय जेईई मेन इत्यस्य द्वितीय सत्रे पूर्णांकं प्राप्तवन्तः। उत्तीर्णांकै सह परीक्षा परिणाम सम्प्रति जेईई मेन अन्तर्जालीय पटले jeemain.nta.nic.in इत्यत्र उपलब्धो वर्तते। अद्य प्रातः नवदिल्ल्याः मुस्तफाबाद क्षेत्रे चतुस्तलीय भवनस्य पतन कारणेन 11 जनाः मृताः, केचन जनाश्च व्रणिताः। राष्ट्रिय आपदमोचन बलस्य महानिरीक्षकः मोहसिन शाहिदी प्रोक्तवान् यत् एनडीआरएफ चेति बलस्य आरक्षकाः जनोद्धार कार्येषु संलग्नाः सन्ति। पूर्व पश्चवर्ती मण्डलस्य अतिरिक्त जनपदस्य आयुक्तः संदीप लांबा अवदत् यत् 14 जनाः संरक्षिताः सन्ति। दिल्ल्याः मुख्यमंत्री रेखा गुप्ता सामाजिकान्तर्जालीय माध्यमेन उक्तवती यत् एतस्याः घटनायाः अन्वेषणाय आदेशः प्रदत्तोऽस्ति, तथा च दोषाणां विरुद्धं कठोर कार्याचरणं निश्चयेन विधास्यते। केन्द्रीय स्वास्थ्य मंत्री जगत प्रकाश नड्डा सर्वेभ्यः आग्रहं कृतवान् यत् भवन्तः खाद्यतैलस्य सेवनं न्यूनातिन्यूनं 10% न्यूनीकुर्वन्तु, तथा च स्वस्थ जीवनशैलीम् अंगीकुर्वन्तु। एतदर्थं भवन्तः सर्वे प्रतिज्ञां कुर्वन्तु। सामाजिक माध्यमेन एकस्मिन् सन्देशे सः प्रतिपादितवान् यत् लघु परिवर्तनानि तदा महत्वपूर्णं परिणामं दातुं शक्नुवन्ति यदा भोजनम् औषधरूपेण मन्यते। श्री नड्डा इत्यस्य सन्देशं प्रति प्रतिक्रियां कुर्वन् प्रधानमन्त्री नरेन्द्र मोदी उक्तवान् यत् एषः उपक्रमः विश्व यकृत दिवसं ध्यात्वा स्वस्थ जीवनस्य भोजनं जीवितुं च केन्द्रीक्रियते, अतः एतद्धि प्रशंसनीय प्रयासरूपेण वर्णितम् अमुना। सः प्रकाशितवान् यत् तैलस्य उपभोगे अल्पता विधान सदृशं सरल कार्यम् अपि महान्तं प्रभावं कर्तुं शक्नोति। प्रधानमन्त्रिणा सर्वेषां जनानां कृते आह्वानं कृतं यत् ते देहस्य स्थूलता विषये जागरूकतां प्रसारयन्तु, स्वस्थ भारतस्य निर्माणे सम्मिलिता च भवन्तु। राष्ट्रपति पदासीनया द्रौपदी मुर्मू इत्यनया ईस्टर उत्सवस्य पूर्वसन्ध्यायां भारते विदेशे च निवसद्भ्य सर्वेभ्य नागरिकेभ्य विशेषतया ईसाई समुदायस्य जनानां कृते अभिवादनं कृतम्। राष्ट्रपति स्वसन्देशे उक्तवती यत् ईसा मसीहस्य पुनरुत्थानस्य स्मरणे ईस्टर उत्सव निःस्वार्थ प्रेम्ण सेवायाश्च सन्देशं प्रसारयति। राष्ट्रपति मुर्मू अग्रे प्रोक्तवती यत् ईसा मसीहस्य बलिदानं त्याग क्षमयो च मूल्यं शिक्षयति, तस्य जीवनं च मानवतां सत्यस्य न्यायस्य करुणायाश्च मार्गम् अनुसरणं कर्तुं प्रेरयति। राष्ट्रपतिः सर्वै आग्रहं कृतवती यत् ते ईसा मसीहस्य जीवनमूल्यानि स्वीकुर्वन्तु, समाजे शान्तिं समृद्धिं च प्रवर्धयन्तु। रक्षामन्त्री राजनाथ सिंहः उक्तवान् यत् प्रधानमन्त्रिणा नरेन्द्रमोदिनः नेतृत्वे देशे नूतना क्रीडा संस्कृति विकसिता अस्ति। अद्य लखनऊ नगरस्य सांसद खेल महाकुम्भस्य उद्घाटनावसरे श्रीसिंहः अवदत् यत् केन्द्रप्रशासनम् उत्तरप्रदेश प्रशासनं चेति उभाभ्यामपि क्रीडानुकूल नीतयः स्वीकृताः सन्ति, अनेन लघु नगराणां युवानां स्वप्रतिभां दर्शयितुम् अवसरान् प्राप्तुवन्ति। श्रीसिंह अवदत् यत् 37-20 वर्षे गुजरात नगरे आयोजितानां ओलम्पिक क्रीडानाम् आयोजनार्थं प्रशासनं प्रयत्नं करोति, सममेव भारते अन्य विश्वस्तरीयानां क्रीडानाम् आयोजनार्थं प्रयत्नः अपि क्रियन्ते। रक्षामन्त्री अवदत् यत् आगामिषु वर्षेषु खेलमहाकुम्भस्य परिणामः स्पष्टतया द्रष्टुं शक्यन्ते, यदा लखनऊ नगरस्य युवक्रीडकाः राष्ट्रिय अन्ताराष्ट्रिय स्तरयोः बहूनि पदकानि प्राप्स्यन्ति। सः सूचितवान् यत् सहस्रमिताः क्रीडकाः प्रायः खेलो इण्डिया इत्यादिषु केन्द्रेषु प्रशिक्षणं प्राप्नुवन्ति। श्रीसिंह अवदत् यत् उत्तरप्रदेशे यूनां कृते नैका सम्भावनाः सन्ति, सममेव मुख्यमन्त्रिणा योगी आदित्यनाथेन आगामि राष्ट्रिय क्रीडाया आयोजनार्थं प्रयत्नः करिष्यते। चतुर्दिवसीय क्रीडा कार्यक्रमेऽस्मिन् 25,000+ प्रतिभागिभिः अनेकासु प्रतियोगितासु कनिष्ठ वरिष्ठ वर्गेषु च भागग्रहणस्य अपेक्षा अस्ति। नवमीतः 12 कक्षापर्यन्तं छात्राः कनिष्ठवर्गे स्पर्धां कुर्वन्ति, अपरता महाविद्यालयस्य विश्वविद्यालयस्य छात्राः वरिष्ठवर्गे भागग्रहणं कुर्वन्ति। आईपीएल क्रिकेट स्पर्धा मालिकायाम् अहमदाबादस्य नरेन्द्र मोदी क्रीडाङ्गणे डेली कैपिटल्स दलेन 4,200 धावनाङ्कानां लक्ष्यं गुजरात टाइटन्स दलस्य सम्मुखे स्थापितम्। तत्रैव सायं 7:30 जयपुरे राजस्थान रॉयल्स दलं लखनऊ सुपर जॉयंट्स दलेन सह स्पर्धिष्यते इति वार्ताः।